इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। बिहार विधानसभा निर्वाचनस्य प्रथम चरणस्य कृते एनडीए महागठबन्धनयोः प्रमुखाः प्रचारकर्तारः स्वप्रचारं तीव्रं कृतवन्तः। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनुगतं प्रकटयिष्यति। भारतेन पाकिस्तानं स्वस्य अवैध अधिगृहीत क्षेत्र विषये विशेषतः जम्मूकश्मीरे गभीरतया नैरन्तर्येण च मानवाधिकारस्य उल्लंघनं स्थगयितुम् आहूतम्। भारत ऋतु विभागेन दक्षिणतटीय क्षेत्रे गुजरात प्रदेशे च प्रचण्ड वृष्टेः पूर्वानुमानं प्रकटितम्। अपि च पुरुष क्रिकेट क्रीडायाम् अद्य सिडनी नगरे अन्तिमायाम् एकदिवसीय क्रीडायाम् नवस्तोभैः सहज विजयेन ऑस्ट्रेलिया दलस्य विरुद्धं तिसृणां क्रिकेट क्रीडा श्रृंखला भारतेन विजिता। अथ वार्ताः विस्तरेण। बिहार विधानसभा निर्वाचनस्य प्रथम चरणस्य कृते एनडीए महागठबन्धनयोः प्रमुखाः प्रचारकर्तारः स्वस्व प्रचारं तीव्रं कृतवन्तः। भारतीय जनता पार्टीति दलस्य वरिष्ठः नेता केन्द्रीयः गृहमन्त्री अमितशाहः खगड़ियायां निर्वाचनसभां सम्बोधितवान्। श्रीशाहः अवदत् यत् एनडीए शासनकाले बिहारे जघन्य अपराधानां संख्यायां महती न्यूनता जाता। श्रीशाहः अवदत् यत् अस्मिन् निर्वाचने निर्णयः भविष्यति यत् बिहारे जंगलराजः भविता अथवा राज्यं विकासस्य पथि अग्रे सरिष्यति। तत्रैव खगड़िया जनपदस्य परबत्ता विधानसभाक्षेत्रे महागठबन्धने मुख्यमन्त्रीपदस्य प्रत्याशी राजद दलनेता तेजस्वी प्रसाद यादवः अपि जनसभां सम्बोधितवान्। सः अवदत् यत् यदि बिहारे तस्य गठबन्धनं सत्तां प्राप्नोति तर्हि राज्ये वृत्तिहीनसमस्यायाः निवारणाय पदानि करिष्यन्ते। मोतिहारीक्षेत्रे निर्वाचनजनसभां प्रवदन् जनसुराजदलस्य संस्थापकः प्रशान्तकिशोरः आरोपं कृतवान् यत् एनडीए दलं महागठबन्धनं च जनानाम् आकांक्षां पूरयितुम् असमर्थे अभवताम्। भारत निर्वाचनायोगेन बिहार विधानसभा निर्वाचनात् प्राक् राजनैतिक प्रचारकार्ये एआई इति कृत्रिम बुद्धिमत्तया निर्मितानां कृत्रिम विषय वस्तूनां प्रकटीकरणस्य तथा उत्तरदायी उपयोगस्य कृते कठोर नियमाः निरूपयता नूतनाः परामर्शाः प्रसारिताः। आयोगः राजनैतिकदलानि प्रत्याशिनः प्रचार प्रतिनिधीन् च उक्तवान् यत् प्रचारार्थं प्रयुक्तानि प्रसारितानि वा किमपि कृत्रिमरूपेण निर्मितम् अथवा कृत्रिमदृष्ट्या परिवर्तितानि चित्राणि श्रव्यचित्राणि दृश्यचित्राणि वा समेत्य कृत्रिमसामग्रीषु स्वनामाङ्कनं कुर्वन्तु इति, येन दृश्यचित्रक्षेत्रस्य न्यूनातिन्यूनं 10% भागम् आच्छाद्यते। अवैधं तथा च कस्यापि व्यक्तेः परिचयस्य स्वरूपस्य अथवा स्वरस्य तस्य सहमतिं विना मतदातॄन् भ्रामयितुं वञ्चयितुं वा निर्मितं किमपि विषयवस्तु प्रकाशयितुं अग्रे प्रेषयितुं वा अवरोधयितुम् अपि आयोगेन आहूतम्। प्रधानमन्त्री नरेन्द्र मोदी श्वः प्रातः 11 वादने आकाशवाणीतः मन की बात इति कार्यक्रमे स्वीयं मनोगतं प्रकटयिष्यति। मासिकस्य आकाशवाणी कार्यक्रमस्य एतत् 27,000 संस्करणं भविष्यति। आकाशवाण्याः दूरदर्शनस्य च सर्वाभिः वाहिनीभिः अस्य कार्यक्रमस्य प्रसारणं भविष्यति। अयं हि कार्यक्रमः आकाशवाणी वार्ताविभागस्य अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अपि च न्यूज ऑन एआईआर इति चलदूरभाषीयतन्त्रांशे अपि उपलब्धः भविष्यति। आकाशवाणी दूरदर्शन वार्ता प्रधानमन्त्री कार्यालय सूचना प्रसारण कार्यालयानां यूट्यूब वाहिनीभिः अपि अस्य कार्यक्रमस्य साक्षात् प्रसारणं भविष्यति। हिन्दीभाषायां प्रसारणस्य पश्चात् अस्य प्रसारणम् आकाशवाण्याः क्षेत्रीय भाषासु अपि भविष्यति। संयुक्तराष्ट्रे भारतस्य स्थायी प्रतिनिधिः पर्वत नेनी हरीशः पाकिस्तानं स्वस्य अवैध अधिगृहीत क्षेत्र विषये विशेषतः जम्मू कश्मीरे गभीरतया निरन्तरेण च मानवाधिकारस्य उल्लंघनं स्थगयितुम् आहूतवान्। सः यः अशीतितमे संयुक्तराष्ट्रदिवसे आयोजिते मुक्तविमर्शसमये संयुक्तराष्ट्रसुरक्षापरिषदं सम्बोधयन् इत्थम् अवदत्। संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in वेबसाइट इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। देशस्य विभिन्नेषु भागेषु चतुर्दिवसीयः छठपूजोत्सवः अद्यारभ्य नहाय खाय इत्यनेन अनुष्ठानेन साकं समारब्धम्। सूर्यदेवस्य तस्य भगिन्याः छठीमय्या इत्यस्याः पूजायै समर्पितः अयमुत्सवः पवित्रतायै, कृतज्ञतायै, कुटुम्बस्य कल्याणाय च महत्त्वं प्रकाशयति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्सवेन सम्बद्धानि गीतानि प्रेषयितुं जनाः प्रार्थिताः, येषाम् अग्रिमेषु कतिपयेषु दिनेषु पुनः प्रसारणं सः करिष्यति। सामाजिक माध्यमं स्वीकृत्य प्रधानमन्त्री अवदत् यत् सम्पूर्णे बिहार प्रदेशे जनाः पूर्वमेव भक्त्या सज्जतायां निमग्नाः, सूर्योपासनायै च एकत्रिताः सन्तीति। भारतीय रेल विभागेन छठ पूजायाः समये यात्रिणाम् अतिरिक्त जनसम्मर्दं निवारयितुं विस्तृत व्यवस्था कृता, येन सम्पूर्णे देशे उत्सवेषु गम्यमानानां जनानां सुगमता सुरक्षिता च यात्रा सुनिश्चिता भवति। उत्सवकालस्यानन्तरं स्वकर्मस्थलानि प्रत्यागन्तुं यात्रिणां सुलभतायै प्रायः 81,600 विशिष्ट रेलयानानि प्रचालितानि सन्ति। अग्रिमेषु त्रिषु दिनेषु 900 विशेष रेलयानानि धावन्ति इति रेलमन्त्रालयेन उक्तम्।
बहुत ही अच्छा अनुभव है, ये गाड़ी में सीट भी मिल जा रहा है और उसके बाद ये टाइमिंग से भी गाड़ी पहुंच गई, थोड़ा मोड़ा लेट हुआ लेकिन टाइमिंग से और बहुत ही ट्रेन से सहूलियत हो रहा है।
रेलमंत्री अश्विनी वैष्णव अवदत् यत् अस्मिन् उत्सव कालावधौ अद्य पर्यन्तं प्रायः 1.5 कोटि रेलयात्रिणः यात्रां कृतवन्तः। उत्सवकालस्य अन्तं यावत् 2.5 कोटितोप्यधिकानां यात्रिणां यात्रायाः सम्भावना विद्यते। नवदिल्ल्याम् अद्य वार्ताहरैः सह वार्तालापं कुर्वन् श्रीवैष्णवः अवदत् यत् सुगमतया जनसम्मर्दं प्रबन्धनार्थं 30 स्थानकेषु बृहत् प्रतीक्षाक्षेत्राणि स्थापितानि सन्ति इति। भारत ऋतु विभागेन अण्डमान निकोबार द्वीप समूहेषु आन्ध्रप्रदेश तटीय कर्णाटके गुजरात प्रदेशे च प्रचण्ड वृष्टेः पूर्वानुमानं प्रकटितम्। आगामिनोः दिनद्वयोः केरल माहे तमिलनाडु पुदुच्चेरी करैकल क्षेत्रेषु अपि प्रचण्ड वृष्टिः भविष्यति। विभागेन अद्य केरल राज्ये माहे क्षेत्रे, कर्णाटके लक्षद्वीपे, तेलंगाना प्रदेशे, अण्डमान निकोबार द्वीप समूहेषु च विद्युद्योतनेन सह वृष्टेः पूर्वानुमानं प्रकटितम्। प्रसिद्धः अभिनेता सतीश साहः अद्य 74 वयसि दिवंगतः। तस्य अभिनयजीवनं दशकेषु व्याप्तमासीत्। बहुमुखी अभिनयेन, हास्य अभिनयेन च सः भारतीय दूरदर्शनस्य चलचित्रस्य च लोकप्रियः जनः अभवत्। सः साराभाई वर्सेस साराभाई इत्यस्मिन् प्रसिद्धे धारावाहिके इन्द्रवदन साराभाई इत्यस्य अविस्मरणीय पात्रस्य कृते प्रसिद्धः आसीत्। पुरुष क्रिकेट क्रीडायाम् अद्य सिडनी नगरे अन्तिमायाम् एकदिवसीय क्रीडायाम् नवस्तोभैः सहज विजयेन आतिथेय ऑस्ट्रेलिया दलस्य विरुद्धं तिसृणां क्रिकेट क्रीडा श्रृंखला भारतेन विजिता इति वार्ताः।